इयम् आकाशवाणी। सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः कृष्णप्रसादोपाध्यायः। आदौ मुख्य वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अमेरिकायाः त्रिदिवसीयां सफलयात्रां समाप्य नवदिल्लीं प्रति प्रस्थितः। यात्रावधौ तेन अनेकैः नेतृभिः समं द्विपक्षीया चर्चा समनुष्ठिता। सः क्वाड नेतृणां सम्मेलनेन सार्धं भारतीयो अमेरिका देशीयस्य समुदायस्य कार्यक्रमेऽपि सम्मिलितो अभवत्। तेन प्रमुख अमेरिका देशीयैः उद्यमिभिः सममपि चर्चा कृता। राष्ट्रपतिः अद्य नवदिल्ल्यां सर्वोच्च लेखा संस्थानानां एशियाई संघटनस्य षोडशीं सभाम् उद्घाटयन्ती प्रोक्तवती यत् सार्वजनिक क्षेत्रस्य लेखापरीक्षणस्य अधिकारः पारम्परिक लेखापरीक्षणात् अग्रे वर्धितोऽस्ति। जम्मू कश्मीर विधानसभा निर्वाचनस्य श्वस्तनीयाय द्वितीय चरणीय मतदानाय सर्वविध सज्जाः सन्ति विहिताः। अपि च एनपीपी इति दलस्य सांसदः डॉ हरिणी अमरसूर्या इत्यनेन श्रीलंका देशस्य प्रधानमन्त्री रूपेण शपथवचनं स्वीकृतम्। अथ वार्ताः विस्तरेण। प्रधानमन्त्री नरेन्द्र मोदी अमेरिकायाः त्रिदिवसीयायाः सफलयात्रायाः अनन्तरं नवदिल्लीं प्रति प्रस्थितः। यात्रावधौ तेन नैकैः नेतृभिः समं द्विपक्षीयायाः चर्चायाः कार्याणि समनुष्ठितानि। सः क्वाड नेतृणां सम्मेलनेन सार्धं भारतीय अमेरिका देशीयस्य समुदायस्य कार्यक्रमेऽपि सम्मिलितो अभवत्। तेन प्रमुख अमेरिका देशीयैः उद्यमिभिः सममपि चर्चा कृता। अस्मिन् यात्रावसरे तेन संयुक्तराष्ट्रशिखरसम्मेलनमपि सम्बोधितम्। श्रीमोदिना यात्रारम्भः अमेरिकादेशस्य राष्ट्रपतिना जो बाइडेन इत्यमुना सह कृतोपवेशनात् समारब्धः। उपवेशनेऽस्मिन् ययोः सन्धिपत्रद्वयोः उपरि हस्ताक्षरं कृतं। तौ स्तः हिन्दप्राशान्तिक आर्थिक संरचना सन्धिः, भारत अमेरिका औषधविधि संरचना च। उल्लेखनीयमस्ति यत् क्वाड नेतृभिः हिन्द महासागरीय नेतृत्वाय प्रधानमन्त्री मोदिनः भारतस्य च प्रशंसा कृता। क्वाड इत्यस्य उद्देशानां संवर्धनाय क्वाड नेतृभिः क्वाड विलमिंगटन घोषणा इत्येषापि अंगीकृता। शिखरसम्मेलनावसरे प्रधानमन्त्रिणा मोदिना जापानदेशस्य प्रधानमन्त्रिणा फुमियो किशिदा अथ ऑस्ट्रेलिया देशस्य च प्रधानमन्त्रिणा एन्थनी अल्बानीज इत्यनेन सह द्विपक्षीयोपवेशने विहिते। प्रधानमन्त्रिणः यात्रायाः प्रमुखाकर्षणेषु एकमासीत् अमेरिकादेशेन 97+200 संख्याकानां पुरावशेषाणां प्रत्यावर्तनमिति। राष्ट्रपतिः द्रौपदी मुर्मुः बलं दत्त्वा उक्तवती यत् प्रभावी लेखापरीक्षणकार्याणां कृते प्रौद्योगिक्याः विकासः महत्वपूर्णः अस्ति। राष्ट्रपतिः अद्य नवदिल्ल्यां सर्वोच्चलेखासंस्थानानां एशियाई संघटनस्य षोडशीं सभाम् उद्घाटयन्ती प्रोक्तवती यत् सार्वजनिकक्षेत्रस्य लेखापरीक्षणस्य अधिकारः पारम्परिकलेखापरीक्षणात् अग्रे वर्धितोऽस्ति। सा प्रोक्तवती यत् प्रौद्योगिकी संचालिते विश्वस्मिन् प्रौद्योगिक्याः उपयोगं कृत्वा अधिकाधिकरूपेण सार्वजनिकसेवाभ्यः द्रुतता प्रदीयते। राष्ट्रपतिः मुर्मुः प्रोक्तवती यत् अधुना विश्वस्मिन् एका महत्वपूर्णा स्थितिः अस्ति यत्र कृत्रिम बुद्धिमत्ता डेटा एनालिटिक्स इत्यादीनां वृद्धिः सर्वत्र दरीदृश्यते। आंकिकीया च उद्यमिता सर्वत्र प्रतिभाति।
This is a momentous occasion, not just for Sai India, but for us as a nation. I am confident that under the able stewardship of the CAG of India, SOSAI will reach new heights, fostering greater cooperation and innovation among the members.
जम्मू कश्मीर विधानसभा निर्वाचनस्य द्वितीय चरणाय सर्वविध सज्जाः सन्ति विहिताः। चरणेऽस्मिन् षड् जनपदानां 26 विधानसभासनेभ्यः मतदानानि श्वः भविष्यन्ति। एतेषां जनपदानां 78,000+25 लक्ष मतदातारः 41,200+ प्रत्याशिनां भाग्यस्य निर्णयं करिष्यन्ति। एतेषु प्राक्तनः मुख्यमंत्री उमर अब्दुल्ला, प्रदेश कांग्रेस दल प्रमुखः तारिक हामिद कर्रा, अपनी पार्टीति दलस्य प्रमुखः अल्ताफ बुखारी च प्रमुखभूताः सन्ति। मतदानाय आहत्य 35,000+ मतदान केन्द्राणि निर्मितानि सन्ति। अस्मै मतदानाय प्रचाराभियानं ह्यः संध्यायामेव समाप्तम्। केन्द्रशासित प्रदेशेस्मिन् मतदानानि त्रिषु चरणेषु जायन्ते। मतगणना च अक्टूबर मासस्य 8 दिनांके भविता। संस्कृत वार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयं आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। मुख्य निर्वाचन आयुक्तः राजीव कुमारः निर्वाचन आयुक्ताभ्यां ज्ञानेश कुमार तथा सुखबीर सिंह संधु इत्येताभ्यां सह अद्य रांची नगरे सर्वेषां विभागानां आयुक्तैः, क्षेत्रीय महानिदेशकैः, सर्वेषां मण्डलानां मण्डल निर्वाचन अधिकारिभिः, सर्वैः उपमहानिदेशकैः, सर्वैः झारखण्ड राज्यस्य आरक्षि अधीक्षकैः च सह समीक्षोपवेशनम् अकरोत्। पूर्वं आयोगः केन्द्रस्य राज्यस्य च प्रवर्तन संस्थाभ्यः प्रलोभनमुक्तं निर्वाचनं सुनिश्चितं कर्तुं निर्देशं दत्तवान्। आयोगेन राज्यस्य मुख्य निर्वाचन अधिकारिणः, राज्य आरक्षक नोडल इति अधिकारिणः, केन्द्रीय सशस्त्र आरक्षक बलानां नोडल इति अधिकारिणः च राज्ये विधानसभा निर्वाचनस्य सुकरं शान्तियुतं च संचालनाय निर्दिष्टाः। कर्णाटक उच्च न्यायालयेन मूडा भूमि आवंटनेति प्रकरणे मुख्यमन्त्रिणं विरुध्य राज्यपालो पाल अनुमोदित विधि प्रकरणं निरस्तम्। न्यायमूर्तिनः एम नागप्रसन्ना इत्यस्य एकलपीठेन उक्तं यत् राज्यपालः स्वतंत्र निर्णये सक्षमः अस्ति, अथ च मुख्यमन्त्रिणं विरुध्य कृतादेशेऽपि तस्य विवेकहीनता न प्रतिभातीति। विदेशमन्त्री डॉ सुब्रह्मण्यम जयशंकरः अद्य न्यूयॉर्क नगरे संयुक्तराष्ट्र महासभायाः उपवेशनावसरे बांग्लादेशस्य विदेश प्रकरणानां परामर्शकेण तौहीद हुसैन इत्यनेन सह द्विपक्षीयोपवेशनम् अकरोत्। उपवेशनमिदं शेख हसीनायाः पदच्युतानन्तरं मोहम्मद यूनुस इत्यस्य च कार्यकारी शासनानन्तरं प्रथमं उच्चस्तरीयोपवेशनमस्ति। उपवेशनेऽस्मिन् उभयोः परिवेशिदेशयोः द्विपक्षीय विषयाः, पारस्परिक हिताधारित प्रकरणानि च चर्चितानि। एनपीपी इति दलस्य सांसदः डॉ हरिणी अमरसूया इत्यनेन श्रीलंकादेशस्य प्रधानमन्त्रीरूपेण शपथवचनं स्वीकृतम्। डॉ अमरसूर्या अद्य अपराह्णे राष्ट्रपति सचिवालये राष्ट्रपतिः अनुराग कुमार दिशानायकस्य समक्षं शपथवचनं स्वीकृतवान्। दिवसैकपूर्वं श्रीदिशानायकेन स्वयं राष्ट्रपतिरूपेण शपथं स्वीकृतमासीत्। एनपीपी इति दलस्य सांसदः विजित होराथः, लक्ष्मण निपुण अराची च मन्त्रिमण्डलस्य मन्त्रिरूपेण शपथं स्वीकृतवन्तौ। वित्तमन्त्री निर्मला सीतारामन इत्येषा अद्यारभ्य उज्बेकिस्तानदेशस्य पञ्चदिवसीय यात्रायाम् अस्ति। स्वीय यात्राकाले वित्तमन्त्री श्वः अथ गुरुवासरे च समरकन्दस्थले एशिया आधारभूत संरचना निवेश बैंक इत्येतस्य बोर्ड ऑफ गवर्नर्स इत्यस्य नवमे वार्षिकोपवेशने भागं भजिष्यति। अपि च भारत उज्बेकिस्तानयोर्मध्ये द्विपक्षीय निवेश सन्धिपत्रेषु हस्ताक्षरं करिष्यति। वित्तमन्त्री उज्बेकिस्तान कतर चीन देशानां स्वीयैः समकक्षैः सह द्विपक्षीयोपवेशनानि विधास्यति। तदनु सुश्री सीतारामन इत्येषा उज्बेकिस्तानस्य राष्ट्रपतिना सावकत मर्जियोवेवेन सह मेलनं करिष्यति इति आशास्यते। इति वार्ताः।